एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा एमाले दलस्य अवरोधस्य कारणेन प्रतिनिधिसभायाः गतदिवसीयोपवेशः कार्यसूच्यां प्रवेशेन विना स्थगितोऽभवत्। एमाले दलस्य सांसदः त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् विहितस्य सुवर्ण तस्करस्य तथ्यम् अनुसन्धातुम् उच्चस्तरीय समिते संगठनम् गृहमन्त्रिणा नैतिकतायाः आधारेण त्यागपत्रस्य प्रदानम् चेति याचनाः प्रस्तुत्य समाघोषान् औच्चारयन् तदनुपवेशः कार्यसूच्यां प्रवेशेन विना स्थगितोऽभवत्। तत्पूर्वम् उपवेशस्य प्रारम्भे आकस्मिक समयमभियाच्य सांसदाः सुवर्ण तस्करी सहितेषु सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। सांसदाः सर्वकारस्य दायित्वभाजां मन्त्रिणाम् उच्चैः अधिकारिणां च संरक्षणेन सुवर्ण तस्करीं विहितमिति दर्शनात् नैतिकतायाः आधारेण गृहमन्त्रिणा अर्थमन्त्रिणा च त्यागपत्रं प्रदातव्यम् इति अयाचन्त। सांसदाः तम्बाकुवटिका यानोपकरण प्रवृत्ति वस्तुना विमानमार्गस्य माध्यमेन अस्वाभाविक आयातः दृष्टः तत्र च सुवर्ण तस्करस्य आशंका उद्भूतेति हेतोः एतेषां सर्वेषां प्रकरणानाम् अनुसन्धानं विधातव्यमिति अभ्ययाचन्त। एवमेव सांसदाः तराई क्षेत्रस्य विभिन्नेषु जनपदेषु नियमित वर्षाणामभावस्य कारणेन कृषकाः धान्यरोपणात् वञ्चिताः विद्युत प्राधिकरणस्य अघोषित विद्युदापूर्त्यवरोधस्य कारणेन उपभोक्तारः समस्यां प्राप्ताः लम्पिस्क्रीन् महामार्याः कारणेन सस्येषु पशुचतुष्पादेषु मृतेषु सत्स्वपि सर्वकारेण कृषकेभ्यः सहायता प्रदायकं कमपि कार्यक्रमम् आनेतुं न शक्तं चेति विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव श्रावणस्य पञ्चदशे दिवसे दिवा एकवादने वस्ता। प्रतिनिधिसभायां त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् आसन्न शतकिलो परिमाणस्य सुवर्णस्य निग्रहणस्य विषये सार्वजनिक महत्वस्य प्रस्तावः पञ्जीकारितो वर्तते। राष्ट्रिय स्वतन्त्र दलं विमानस्थलस्य प्रवेश शुल्क कार्यालयात् विहितस्य सुवर्ण तस्करस्य काण्डस्य विषये संसदि विमर्शनं सर्वकारस्य उत्तरं च अभियाच्य संघीय संसद सचिवालये ह्य अत्यावश्यक सार्वजनिक महत्वस्य प्रस्तावमं पञ्जीकृतवद् वर्तते। प्रस्तावे अवैधानिक सुवर्ण यात प्रकरणम् अनुसन्धातुं प्रवेश शुल्क कार्यालयाभ्यन्तरादेव विहितस्य तस्करस्य निरोधनाय सर्वकारेण विहितायाः योजनायाः सर्वकारेण अधिगृहीतस्य सुवर्णस्य प्रयोग प्रक्रियायाश्च विषययोः ज्ञापयितुं च सर्वकाराद् उत्तरम् अभियाचितम् अस्ति। नेकपा एमाले दलीय संसदीय दलस्य उपवेशेन सुवर्ण तस्करी प्रकरणस्य विषये सर्वकारात् उत्तरं याचितुं निर्णीतं वर्तते। नयाँ वानेश्वरवर्तिनी संसद भवने ह्य उपविष्टेन संसदीय दलस्य उपवेशेन सुवर्ण तस्करी प्रकरणस्य गभीरेण अनुसन्धानं विधातव्यमिति निर्णीतमिति एमाले दलस्य नेता रघुजी पन्तः अज्ञापयत्। न केवलं सुवर्णवाहकान् एव अपितु तत्कार्यकर्तृणि संस्थानानि यावत् प्राप्य तस्करस्य प्रक्रियायां संलग्नाः सर्वे दण्डनीयाः इति नेता पन्त अगदत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशेन आगामिनि मार्ग शीर्ष मासे दलस्य महासमितेः उपवेशम् आयोजयितुं निर्णीतमस्ति। कांग्रेस केन्द्रीय कार्य समितेः सप्ताहवधिं यावत् सञ्चालितेन उपवेशेन दलस्य महासमितेः उपवेशम् आगामिनो मार्गशीर्ष मासस्य एकादश द्वादश त्रयोदश दिवसेषु काष्ठमण्डपे आयोजयितुं निर्णीतमस्ति। दलस्य सानेपावर्तिनी केन्द्रीय कार्यालय ह्य उपविष्टे केन्द्रीय कार्य समितेः उपवेशे महामन्त्री विश्वप्रकाश शर्मा नित्यधिवेशनस्य माध्यमेन विधास्यमानस्य कार्यस्य सम्पादनत्वेन महासमितेः उपवेशः आहूतोऽस्तीति अवोचत्। नेपाली कांग्रेस दलस्य केन्द्रीय समितेः उपवेशेन मधेस प्रदेशे न्यूनवृष्टेः कारणेन यथासमयं कृष्याः अभावेन मधेस प्रदेशं शुष्कक्षेत्रम् उद्घुष्य कृषकेभ्यः सहयोग प्रदानाय सर्वकारम् अनुरोद्धुं च निर्णीतमस्ति। उपवेशेन भ्रष्टाचारस्य नियन्त्रणाय सुशासनाय च सर्वकारेण प्रारब्धाय अभियानाय सहयोक्तुं निर्णीतमस्ति। परं भूटानदेशीय कृत्रिम शरणार्थी प्रकरणे संलग्नतायाः अभियोगे कारावासे स्थितस्य पूर्वमन्त्रिणः दलस्य नेतुश्च बालकृष्ण खाण इत्यस्य सन्दर्भे उपवेशेन कोऽपि निर्णयः न विहितः इत्यत्र दलस्य महामन्त्रिणा गगन कुमार थापाभिधेन पृथक् मतम् उपस्थापितम् वर्तते। दलेन राष्ट्रपतौ संघ सर्वकारे सप्तस्वेव प्रदेशेषु च स्वस्य समर्थनेन सहभागितायाञ्च निर्मितैः वर्तमान सर्वकारैः प्रारब्धेभ्यः अभियानेभ्यः समर्थनेन सह जनतायाः मनोजयत्वेन कार्यं विधातुं दलस्य पक्षतः निर्वाचिताः सर्वे जनप्रतिनिधयः अनुरुद्धाः सन्ति। एवमेव उपवेशेन अस्यैव श्रावणस्य विंशात् दिवसात् दलं क्रियाशीलं विधातुं ग्रामात् केन्द्रं यावत् विभिन्नानि अभियानानि सञ्चालयितुं च निर्णीतमस्ति। एवमेव उपवेशेन गत निर्वाचनेषु दलस्य प्रत्याशिनां विरूद्धे प्रत्याशितां प्रस्तुत्य दण्डितानां नेतृकार्यकर्तृणां दण्डनं निरस्तीकर्तुमपि निर्णीतमस्ति। उपवेशस्य समापन कार्यक्रमे दलस्य सभापतिः शेरबहादुर देउवा, दलस्य केन्द्रीय कार्यसमितेः उपवेशे स्वस्वधारणाम् उपस्थाय दलम् अतिरिक्तं गतिशीलं लोकप्रियं च विधातुं सहयोगकर्तृभ्यः सर्वेभ्यः धन्यवादं व्याहरत्। उपवेशस्य समापने सभापतिः देउवा, दलस्य केन्द्रीय कार्यसमितेः अपरोपवेशः आगामिनः आश्विन मासस्य द्वितीय दिवसे उपवेक्ष्यते इति च अज्ञापयत्। सर्वोच्च न्यायालये कोशी प्रदेश सर्वकार संगठनस्य विरूद्धे पञ्जीकारितम् आदेशाभियाचन निवेदनम् आधृत्य विहितं श्रवणम् इहोऽपि विलोकनस्य क्रमे स्थापितं वर्तते। न्यायाधीशानाम् ईश्वर प्रसाद खतिवड़ाभिधस्य, डाक्टर आनन्दमोहन भट्टराई इत्यस्य, तिलप्रसाद श्रेष्ठस्य च पूर्ण न्यायपीठे परह्यः प्रारब्धं विमर्शनम् इह समाप्तं सदपि अद्यतन दिवसाय विलोकनस्य क्रमे स्थापितमिति सर्वोच्च न्यायालयस्य प्रवक्ता विमल पौडेलः अज्ञापयत्। विमर्शनम् समापितम् सदपि एतस्मिन् विषये आदेशनम् अवशिष्टम् वर्तते। आदेशस्य विषये अद्य उपविश्यमानेन न्यायपीठेन निर्णीयते। ललिता निवासस्य भूमेः अनियमिततायाः प्रकरणे निगृहीतान् द्वाविंशतिम् जनान् अनुसन्धातुम् प्रहरिणा अतिरिक्तानाम् पञ्चानाम् दिनानाम् अवधिः प्राप्तो वर्तते। काष्ठमण्डप जनपद न्यायालये ह्य एतेषु जनेषु उपस्थापितेषु सत्सु न्यायालयेन पञ्चदिनानि यावद् निग्रहणे संस्थाप्य अनुसन्धातुम् समयः प्रदत्तः इति केन्द्रीयानुसन्धान निकायस्य प्रहरी वरिष्ठो परीक्षक दिनेश आचार्यः असूचयत्। केन्द्रीयानुसन्धान निकायेन सम्प्रति एतेभ्यो जनेभ्य प्रकथन ग्रहण क्रमः संचाल्यमानो वर्तते। नेकपा एकीकृत समाजवादी दलेन एमसीसी परियोजनाया क्रियान्वयनस्य अवस्थाया विषये सर्वकारात् उत्तरम् अभियाच्यते। दलस्य सचिवालयोपवेशेन विहितान् निर्णयान् सार्वजनिक कुर्वाणा ह्य दलस्य प्रवक्ता जगन्नाथ खतिवड़ा एमसीसी परियोजनाया क्रियान्वयनस्य अवस्थाया विषये सर्वकारात् स्पष्टम् उत्तरम् अभियाचितुम् निर्णीतम् अस्तीति अज्ञापयत्। एवमेव उपवेशेन व्याख्यात्मकावस्था घोषणाया क्रियान्वयनाय संसदीयानुगमन समित्यै प्रयतितुम् समाजवादी संयुतेः दलेषु मतभिन्नतायां सत्यां संयुक्त विषयेषु सहमतिं ज्ञापयितुम् संयुतेः कार्यनीतेः योजनायाः विषये दलपङ्क्तेः स्पष्टयितुं च निर्णीतमस्तीति दलप्रवक्ता खतिवड़ा असूचयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति वर्तमान सर्वकारेण सामाजिक न्यायस्य सुशासनस्य विकास निर्माणस्य समृद्धेश्च पक्षेषु नूतनम् अभियानम् सञ्चालितम् अस्ति। आवासीयतर नेपाली संघस्य इटाली शाखया प्रधानमन्त्रिण सम्माने ह्य इटाली देशस्य रोम स्थाने आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड भ्रष्टाचारस्य अव्यवस्थायाश्च विरूद्धे सर्वकारेण कठोरम् अभियानम् सञ्चालितम् अस्तीति असूचयत्। स्वस्य नेतृत्वे वर्तमान सर्वकारस्य संघटनस्य पश्चात् अव्यवस्थायाः नियन्त्रणस्य सेवा प्रवाहे सहजीकरणस्य नागरिकाणां जीवनस्तरे आमूल परिवर्तनस्य च उद्देश्येन महत्वपूर्ण कार्याणि प्रारब्धानि सन्तीति प्रावोचत्। प्रधानमन्त्रिणश्च भारवाहक रक्षामन्त्री पूर्णबहादुर खड्का जलविप्लव भूस्खलन प्रवृत्ति कारणैः याः जनधनयोः क्षतिर्निरोधनाय अवरुद्धानां राजमार्गाणां तत्कालं सञ्चालनस्य व्यवस्थायै च निर्दिशति। ह्यो रक्षा मन्त्रालय विपद व्यवस्थापन सहितेषु विषयेषु आयोजिते उपवेशे असौ विपदः प्राक् सावधानताम् उच्चैः प्राथमिकतायां संस्थाप्य कार्याणि विधातुं निरदिशत्। नेकपा माओवादी केन्द्रम् अस्यैव श्रावणस्य तृतीय सप्ताहे उपवेक्ष्यमाणस्य केन्द्रीय समितेः उपवेशस्य पूर्वकार्ये संलग्नम् वर्तते। इति समाचाराः।